इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी तथा वेनेजुएला देशस्य कार्यवाहक राष्ट्रपतिः डेल्सी रेड्रिगेज इत्येषा च व्यापार निवेशम् ऊर्जा डिजिटल तन्त्रज्ञानम् स्वास्थ्यम् कृषिः जनसम्पर्कः इत्यादिषु सर्वेषु क्षेत्रेषु द्वैपाक्षिक सहभागित्वं विस्तारयितुं सुदृढं च कर्तुं सहमतौ अभवताम्। विदेशमन्त्रालयः एकस्मिन् वक्तव्ये अवदत् यत् श्वः वेनेजुएला देशस्य कार्यवाहक राष्ट्रपतिना श्रीमोदिना सह दूरभाषमाध्यमेन चर्चा कृता। उभौ पक्षौ परस्पर हितानां विभिन्नेषु प्रादेशिक वैश्विक विषयेषु विचाराणाम् आदान प्रदानं कृतवन्तौ। वैश्विक दक्षिणस्य कृते तौ निकट सहयोगस्य महत्वमपि प्रतिपादितवन्तौ। भारत अरब देशीय विदेशमन्त्रिणाम् ऐषमः द्वितीयं सम्मेलनं नवदिल्ल्याम् अद्य आयोज्यते। अस्य सम्मेलनस्य सह अध्यक्षत्वं भारतदेशेन संयुक्त अरब अमीरात देशेन च सम्भूय क्रियते। अस्मिन् सम्मेलने अरब संघस्य सदस्य देशानां विदेशमन्त्रिणः तथा अरब संघस्य महासचिवः अपि सम्मिल्य भागं ग्रहीष्यन्ति। एतद्धि भारत अरब विदेशमन्त्रिणां प्रथमं सम्मेलनम् अस्ति यद्धि भारतदेशेन नवदिल्ली मध्ये समायोज्यते। अस्य सम्मेलनस्य उद्देश्यः पञ्च प्राथमिक क्षेत्रेषु परस्परं साहमत्यानाम् अधिकं सुदृढीकरणमस्ति। एतेषु प्राथमिक क्षेत्रेषु राजनीतिक सहयोगः व्यापार निवेशः ऊर्जा सांस्कृतिक विनिमयः क्षेत्रीय वैश्विक विषयेषु समन्वयश्च अन्तर्भवन्ति। विदेशमन्त्रालयस्यानुसारम् एतत् सम्मेलनं भारत अरब देशानां दीर्घकालिक सहयोगाय नवीनां दिशां दर्शयिष्यति, परस्परं विश्वासं च अधिकं सुदृढं करिष्यति। केन्द्रीय गृहमन्त्री अमित शाहः ह्यः असमराज्ये 17,00,000,00,000 मूल्ययुतानाम् अनेकासां विकास परियोजनानाम् उद्घाटनं कृतवान् तथा च कतिपय परियोजनानां शिलान्यासमपि अकरोत्। डिब्रुगढ़ नगरे जनसभां सम्बोधयन् श्रीशाहः अवदत् यत् भारतस्य यूरोपीय संघस्य च मुक्त व्यापार समन्वयेन यूरोपीय देशेषु असमस्य चायोत्पाद निर्यातस्य वृद्धिः भविष्यति। एतासु परियोजनासु मार्ग विकासः आधारभूत संरचना जनोपयोगी सुविधाः क्षेत्रीय विकास सम्बद्धाश्च परियोजनाः अन्तर्भवन्ति। अस्मिन् अवसरे श्री अमित शाहः अवदत् यत् केन्द्रसर्वकारः पूर्वोत्तर राज्यानां समग्र विकासाय दृढसंकल्पितः अस्ति। असमराज्यं च विकासस्य नवं केन्द्रं कर्तुं निरन्तरं प्रयत्नाः क्रियन्ते। एताभिः परियोजनाभिः एकतः जीविकानां नवा अवसराः सृजिताः भविष्यन्ति, अपरताश्च राज्यस्य अर्थव्यवस्थाः अपि सबली भविष्यन्ति। कार्यक्रमे राज्यसर्वकारस्य वरिष्ठाः अधिकारिणः जनप्रतिनिधयश्च उपस्थिताः आसन्। वित्तमन्त्री निर्मला सीतारामन् इत्येषा श्वः लोकसभायां 26,2017-27,2000 अर्थसंकल्पनापत्रं प्रस्तोष्यति। इदं हि नरेन्द्रमोदी प्रशासनस्य तृतीयं कार्यकालस्य तृतीयम् अर्थसंकल्पनापत्रं भविष्यति इति। 19,2000 वर्षे पदभारग्रहणानन्तरं वित्तमन्त्रिणः निर्मला सीतारामन् इत्येतस्याः इदं हि सततं नवमं अर्थसंकल्पनापत्रं भविष्यति। लोकसभायां पत्रस्य प्रस्तुतेः अनन्तरं अर्थपत्रस्यास्य एका प्रति राज्यसभायाम् अपि प्रस्तोष्यते। आयव्ययपत्रात् पूर्वम् एकस्मिन् परामर्शोपवेशनावधौ वित्तमन्त्रिणा कृषकसङ्घः कृषि अर्थशास्त्रिभिः उच्चक्षेत्राणां प्रतिनिधिभिः हितधारकैश्च सह उपवेशनानि विहितानि। भारत न्यूजीलैंड देशयोः मध्ये अनुवर्तमानायां 20-प्रति-20 क्षेपचक्रीय क्रीडा स्पर्धा मालिकायाः पञ्चमान्तिमा च स्पर्धा अद्य तिरुवनन्तपुरम् इत्यत्र आयोजयिष्यते। स्पर्धेयं भारतीय समयानुसारं सायं 7 वादने आरप्स्यते। इति वार्ताः।